ॐ येन धौता गिरः पुंसाम् विमलैः शब्दवारिभिः तमच्चाज्ञानजम् भिन्नम् तस्मै पाणिनये नमः ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनी नमस्कारः
नमस्ते
तर्हि तत्र आरम्भं कुर्मः तर्हि भगिनि तत्र भवती एव तत्र करपत्रे लुङ्लकारस्य
आं महोदय
हा विषयमस्ति तत् किञ्चित् पठामः
पठामि महोदय
पठतु भगिनि पठतु भगिनि
लुङ्लकारः पिता वदति वत्स व्यजनं न चलति भवान् तत् किं न समीकारितवान् पुत्रः वदति यदि भवान् कारयतु इति अवदिश्यत् तर्हि अहं कारयिष्यम् पिता केन रीड् आर्
पठतु भगिनि अन्य कोऽपि नास्ति
ओके पिता वदति शालागमनसमये यदि विद्युत्कारः
सूचितः
स्यात् तर्हि एतावता व्यजनं सम्यक् अभविष्यत् भवान् कारयेत् इति मया चिन्तितम् अन्यथा अहम् एव गमनसमये आपणिकं शाप् ओके आपणिकम् असूचयिष्यम्
असूचयिष्यं समीचीनं मधुमहोदय नमस्कारः
नमस्कारः महोदय
नमस्कारः महोदय तत्र करपत्रं अस्तु तर्हि नमस्कारः अस्तु तर्हि तत्र हा अकरिष्यम् अग्रे भगिनी सुजाता भगिनी
पुत्रः भवान् यदि उक्तवान् स्यात् तर्हि अहम् अवश्यम् अकरिष्यम्
अकारयिष्यम्
क्षम्यतां महोदय अस्तु तावत् अहो रजकाय दातव्यानि वस्त्राणि अत्रैव सन्ति यदि प्रातः एतानि रजकाय दत्तानि स्युः तर्हि श्वः प्रातःकाले सः प्रत्यर्पितवान् स्यात् भवान् यदि माम् अवदिश्यत् तर्हि अहम् अदास्यम् यदि भवान् मातरं वदेत् तर्हि सा वा दद्यात् उभयम् अपि न कृतं भवता यदि भवतः माता स्वच्छीकरणार्थम् अत्र आगतवती स्यात् तर्हि एतानि अवश्यं दृष्टवती स्यात् रजकाय दत्तवती स्यात् अपि किन्तु सा अद्य अत्र न आगतवती इति भाति पुत्रः कर्मकारे स्वच्छतां कृतवती स्यात् अतः मात्रा न दृष्टम्
हा इति समीचीनं भगिनि धन्यवादः इदानीं तत्र
महोदय
हा इदानीं तत्र व्यजनं न चलति इति व्यजनं जानाति खलु व्यजनं नाम फ्यान् इति तत् न चलति भवान् तत् किं न समीकारितवान् नाम समीकरोति तस्य तव तु रूपं समी समीकारयति तत्र समीकारयति समीकारितवान् तवत् रूपमस्ति समीचीनं हा अतः तत्र इदानीं व्यजनं न चलति तत्र समीकरणं समी तत्र समीकारणं न कृतम् अतः तत्र यदि भवान् कारयतु इति अवदिश्यत् तर्हि अहम् अकारयिष्यम् तत्र अवदिश्यत् इति लृङ्लकारः गतवर्गे दृष्टवन्तः खलु तत्र अवधत् वदति इति लट्लकारे अवधत् इति लङ्लकारे
अकारयिष्यम् इति रुट्लकार लुङ्लकार अस्ति
लुङ्लकार अस्ति तत्र अवदिश्यत् इति तत्र वदति अवदत् वदिष्यति अवदत् अपि वदिष्यति इति मेलनेन अवदिश्यत् इति भवति तत्र अकारयिष्यम् इति तत्र लट्लकरूपं किम् अस्ति
अकारयिष्यम् कारयिष्य
लट्लकारं प्रथमं वदतु लट्लकारः कः इति प्रथमतया वदतु न न लट्लकारः हा कारयति कारयति उत्तमपुरुषे
उत्तमपुरुषे
अहं
कारयामि
अहं कारयामि अहं कारयामि हा इदानीं तत्र अहं तत्र कारयति अकारयत् अकारयत् अपि तत्र कारयिष्यति मेलनेन अकारयिष्यत् उत्तमपुरुषे अकारयिष्यम् इति अतः तत्र पुत्रः वदति यदि भवान् कारयतु इति अवदिश्यत् तर्हि अहम् अकारयिष्यम् अतः तत्र पिता उक्तवान् वा कारयतु इति न उक्तवान् अतः सः अपि न कारयितवान्
कृतवान् सम्यक् अस्ति महोदय
न कृतवान् इत्युक्ते सः एव कृतवान् कारयतु इत्युक्ते अन्य कोऽपि हा तत्र अन्यं प्रेरयतु तत्र पठति पाठयति इति तत्र प्रेरणार्थे कारयति अत्र पुत्रः न कारयितवान् खलु अतः तत्र एतद् न अभवत् तत्र पिता न उक्तवान् पुत्रः न कारयितवान् अतः तत्र अवदिश्यत् इति तत्र यत् न अभवत् यत् न अभवत् अपि सः न कारितवान् किन्तु लृङ्लकाररूपम् इदानीम् अस्तु इदानीम् अग्रे
महोदय
तत्र शालागमनसमये यदि
शालागमनसमये यदि विद्युत्कारः सूचितः स्यात् तर्हि एतावता व्यजनं सम्यक् अभविष्यत् गमनसमये यदि विद्युत्कारः एलेक्ट्रिशियन्
तत्र यदि तत्र पुत्रेण सूचितः नाम यदि पुत्रः विद्युत्कारं सूचितवान् आसीत्
तर्हि
एतावता किम् अभवत् तत्र व्यजनं सम्यक् अभवत् किन्तु तद् न कृतं तत् सः न कृतवान् अतः इदानीमपि व्यजनं सम्यक् न चलति भवान् कारयेत्
मया चिन्तितम्
तत्र कारयेत् इति लकारः कः
कारयेत्
स्यात् कारयेत् इति
विधिलिङ्ग अस्ति
विधिलिङ्गकारः समीचीनं भगिनि हा विधिलिङ्गकारः एव तत्र विधिलिङ्गकारः तत्र सम्भावनार्थे खलु तत्र भवान् कारयेत् भवान् प्रायशः तत्र तत् करोति इति अहं चिन्तितवान् भवान् कारयेत् इति मया चिन्तितम् आसीत्
अन्यथा अहम् एव गमनसमये आपणिकं असूचिष्यम्
असूचयिष्यम्
सूचयिष्यम्
हा तत्र सूचयति
सूचयति
असूचयत्
सूचयिष्यति
मेलनं कृत्वा हा इति प्रथमपुरुषे इदानीम् उत्तमपुरुषे असूचयिष्यम् हा इति समीचीनं भगिनि हा अतः तत्र किन्तु पिता सूचितवान् वा न
न
सूचितवान् हा एतद् अवगच्छामः तत्र न सूचितवान् यतोहि लृङ्लकारः अस्ति अतः तद् न अभवत् सः न सूचितवान् इदानीं भवान्
यदि उक्तवान् स्यात् तर्हि अहम् अवश्यम् अकारयिष्यम्
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 अतः किन्तु पिता न उक्तवान् अपि पुत्रः न अकारयिष्यत्
अकारयिष्यम्
अतः तत्र द्वयमपि न अभवत् पुनः तत्र स्यात् इति विधिलिङ्गकारः अकारयिष्यम् इति लृङ्लकारः अस्तु अग्रे
अस्तु तावत् अहो रजकाय दातव्यानि वस्त्राणि अत्रैव सन्ति
तत्र रजकः नाम
रजकः नाम वस्त्रं क्षालयति
वस्त्रस्य प्रक्षालनं क्षालयति यः क्षालयति सः रजकः
रजकः
तस्मै दातव्यानि वस्त्राणि तत्र वस्त्राणि सन्ति तत्र रजकः तस्य क्षालनं करोति इति चिन्तनम् आसीत् किन्तु तत्र वस्त्राणि अत्र एव सन्ति अतः यदि
प्रातः एतानि रजका एतानि रजकाय दत्तानि स्युः तर्हि श्वः प्रातःकाले सः प्रत्यर्पितवान् स्यात्
नाम यदि अद्य प्रातः एव तत्र तस्मै रजकाय एतानि वस्त्राणि दद्मः किन्तु इदानीं न कर्तुं शक्नुमः यत् अतः तत्र यदि रजकाय दत्तानि स्युः सम्भवनार्थे यदि वयम् एतादृशं कृतवन्तः स्यात् तर्हि किं तस्मिन् समये किम् अभवत् श्वः
प्रातःकाले
एव सः वस्त्राणि प्रत्यर्पितवान् स्यात् तत्र क्षालयित्वा
कृत्वा
तत्र पुनः वस्त्राणि तत्र प्रत्यर्पितवान् स्यात् किन्तु वयं न दत्तवन्तः अपि प्रातःकाले श्वः तत्र प्रत्यर्पणमपि न भविष्यति अग्रे
भवान् यदि माम् अवदिष्यत् तर्हि अहम् अदास्यम् यदि माम् अवदिष्यत्
यदि माम् उक्तवान् स्यात् यदि भवान् उक्तवान् स्यात् अहं दत्तवान् स्यात्
यदि भवान् मातरं वदेत् तर्हि सा वा दद्यात्
तत्र पुनः वदेत् इति तत्र लकारः कः
वदेत् विधिलिङ्गलकारः
विधिलिङ्गलकारः एव तत्र यदि भवान् मातरं वदेत् तर्हि सा वा दद्यात् अतः
मातरः
वा दद्यात् अथवा माता
वा न उक्तवान् तर्हि
मातापि न दत्तवती पुत्रः अपि न दत्तवान् उभयमपि न कृतं भवता नाम पिता पुत्रमपि न सूचितवान् मातरमपि न सूचितवान् अतः तत्र द्वयमपि न अभवत् अतः तत्र वस्त्राणि तत्र एव सन्ति अस्तु अग्रे
यदि भवतः माता स्वच्छीकरणार्थम् अत्र आगतवती स्यात् तर्हि एतानि अवश्यं दृष्टवती स्यात् रजकाय दत्तवती स्यात् अपि
तथा
माता स्वच्छीकरणार्थं स्वच्छी क्लीनिङ्ग्
तत्र स्वच्छं स्वच्छं कर्तुं
स्वच्छं करणं अत्र न आगतवती सा तर्हि
सा न दृष्टवती
स्यात्
हा तत्र यदि सा आगतवती स्यात् तर्हि दृष्टवती स्यात् अवश्यं किन्तु सा न आगतवती अतः सा न दृष्टवती अपि सा न दत्तवती
किन्तु सा अद्य अत्र न आगतवती इति भाति
हा नाम अद्य सा अत्र आगत न आगतवती न आगतवती अत्र इति
भाति
भाति भाति नाम इति दृश्यते इति चिन्तयामि अस्ति सा स्थितिः अस्ति इति मन्ये तत्र सम्यक्तया न जानाति किन्तु चिन्तनं तत्र सम्भावना तत्र प्रायशः सा अत्र न आगतवती अद्य
कर्मकारी स्वच्छतां कृतवती स्यात्
अतः मात्रा दृष्टं हा तत्र मात्रा न तत्र प्रकोष्ठ तत्र अत्र किमपि न दृष्टं मात्रा न मात्रा इति तृतीया मात्रा किमपि न दृष्टम् अद्य इति अतः तत्र
त्वान्तरूपमस्ति महोदय
किं भगिनि
दृष्टं
दृष्टं दृष्टम् इति तत्र हा दृष्टः थ प्रत्ययः भगिनि पठितः हा तत्र दृष्टातोः थ प्रत्ययेन तत्र पट् धातोः पठितः पठितः ग्रन्थः पठितं पुस्तकं हा तादृशं दृष्टः वृक्षः दृष्टं पुस्तकम् इति रूपं भवति त प्रत्ययः इति अतः तत्र विषयः कः अत्र मूलविषयः अस्ति लृङ्लकारः लृङ्लकारस्य वयं रूपं गतवर्गे अपि दृष्टवन्तः किन्तु अद्य तत्र क्लेशः आसीत् तत्र गतवर्गे तत्र क्लेशः आसीत् इति कृत्वा अहं चिन्तितवान् तत्र एतत् वदतु भगिनि
एतत् सरलमस्ति
अतः अतः सत्यं भगिनि अतः एव तत्र अर्थः अर्थस्य अवगमनं सुलभतया भवति इति एव अतः तत्र एतत् स्वीकृतवान् अहम् अतः तत्र अग्रे तत्र विशेषः इति अस्ति खलु भगिनि तदपि भवती एव पठतु
लृङ्गार्थः अत्र क्रियाद्वयस्य कार्यकारणभावः भवति यत्र क्रिया सञ्जाता न भवति च तत्र लुङ्लकारस्य प्रयोगः
तत्र क्रियाद्वयमस्ति यत् यथा तत्र उक्तवान् तत्र भवान् यदि माम् अवदिश्यत् तर्हि अहम् अदास्यं तत्र एकमस्ति कारणम् अन्यत् अस्ति कार्यं नाम कास् एण्ड् एफेक्ट् इति अतः तत्र क्रियाद्वयमस्ति प्रथमं कारणं कारणक्रिया द्वितीयं तत्र कार्यक्रिया नाम एफेक्ट् इति हा एफेक्ट् एफेक्ट् आक्षन् कास् आक्षन् एफेक्ट् आक्षन् इति तत्र कार्यकारणभावः भवति किन्तु यत्र क्रिया सञ्जाता न भवति नाम तत् एतत् न अभवत् केवलं कल्पना अस्ति अस्माकं सञ्जाता नाम तत् अभवत् एतत् अभवत् इत्युक्ते सा सञ्जाता सा घटना सञ्जाता सा अभवत् किन्तु सा क्रिया न सञ्जाता नाम क्रिया सा क्रिया तत्र न अभवत् अतः वदामः यदि भवान् एतत् अकरिष्यत् किन्तु भवान् न कृतवान् न कृतवान् इति अतः तत्र न सञ्जाता हा तत्र एव लृङ्लकारस्य प्रयोगः भवति हा इदानीं तत्र अर्थस्य स्पष्टीकरणार्थं तत्र उदाहरणमस्ति अपि अग्रिमपुटे बहु सम्यक्तया प्रतिपादनमस्ति, तदपि पठामः भगिनि. अस्तु अग्रे उदाहरणं
महोदय
पठतु भगिनि.
भवान् यदि अवदिष्यत् तर्हि अहम् अकरिष्यम्. भवान् न उदितवान् तर्हि अहं न कृतवान्.
अत्रैव तत्र अग्रे तत्र अंशद्वयं लिखितमस्ति. प्रथमांशः
कारणस्य कथनस्य च कार्यकारणभावः अस्ति. भवान् उक्तवान् कारणस्य कथनस्य च कार्यकारणभावः अस्ति. उक्तवान् अहं न कृतवान्, सम्यक् कृतवती महोदय इति. उभयत्र अपि क्रियायाः असमाप्तिः दृश्यते.
नाम तत्र क्रिया समाप्ता नास्ति, क्रिया न सञ्जाता. अतः उभयत्र अपि क्रियायाः असमाप्तिः दृश्यते. तत्र क्रिया न अभवत्, क्रियाद्वयमपि न अभवत् इति. अतः तत्र अस्मिन्नेव सन्दर्भे तत्र गृङ्गकारस्य प्रयोगः
भवति.
इदानीं तत्र लृङ्लकारस्य अर्थः कः इति तस्य अवगमनार्थं तत्र समानार्थकवाक्यत्रयम् अग्रिमे पुटे अस्ति. अतः तत्र लृङ्लकारार्थे त्रिधा वक्तुं
शक्यते.
एतत् यदि पठामः सम्यक्तया तत्र लृङ्लकारस्य अर्थः मनसि स्थापितः भवति. अतः तत्र भवान् न उक्तवान्, इति अस्ति. अस्तु अतः तत्र प्रथमवाक्यं पठतु.
यदि भवान् अवदिष्यत् तर्हि अहम् अकरिष्यम्.
तस्य इति प्रथमरूपम्. अस्तु द्वितीयरूपम्.
द्वितीयरूपं यदि भवान् वदेत् तर्हि अहं कुर्याम्.
तृतीयं वाक्यं यदि भवान्
उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात्.
सः स्यात् अहं स्याम् इति. इदानीं तत्र प्रथमवाक्ये किम् अस्ति तत्र लृङ्लकारस्य
यदि भवान् अवदिष्यत् भवान् न उदितवान् न कृतवान्
अथवा कृतवती. अतः तत्र तत्र प्रथमवाक्ये लृङ्लकाररूपम् अस्ति. एतस्य एव तत्र प्रयोगः कथं करणीयः इति वयं तस्य एव प्रयत्नं कुर्वन्तः स्मः. अतः तत्र एतस्य अर्थः कः इत्युक्ते इदानीं द्वितीयवाक्ये यदि भवान् वदेत् तर्हि अहं कुर्याम्. किन्तु तत्र भवान् यदि भवान् वदेत् तर्हि अहं कुर्याम् तत्र अर्थः कः
अस्ति महोदय?
किं भगिनि?
सम्भावनार्थे अस्ति यदि भवान् वदेत् तर्हि.
सम्भावनार्थे अस्ति किन्तु तत्र अत्र सम्भावना तत्र यदि भवान् वदेत् यदि भविष्यत्काले अस्ति चेत् तद् सम्भावना इति. इदानीं किम् अस्ति? भवान् न उक्तवान् इति एव. अतः एव तत्र वाक्यत्रयस्य अर्थः कः इत्युक्ते भवान् न उक्तवान्, अहं न कृतवान्. अतः तत्र यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्याम्. इदानीं तत्र प्रथमवाक्ये तत्र किम् अस्ति लृङ्लकाररूपाणि पश्यामः. अवदिष्यत् अकरिष्यम्
अकरिष्यम्.
इदानीं द्वितीयवाक्ये किम् अस्ति? केवलं विधिलिङ्लकारः वदेत् कुर्याम्
इति.
तृतीयवाक्ये किम् अस्ति? तत्र विधिलिङ्गकारः अस्ति स्यात् स्यां, केवलम् अस् धातोः विधिलिङ्गकारः. किन्तु वदति इति स्थाने कृतवतु रूपम् उक्तवान्
उक्तवान्
कुर्याम् इति स्थाने कृतवान् स्यान् अतः तत्र क्तवतु जानीमः अपि स्यात् स्याम् अस्धातोः विधिलिङ्गकारः जानीमश्चेत् तृतीयवाक्यं सुलभतया रचितुं शक्नुमः विधिलिङ्गकारः सम्यक्तया जानीमश्चेत् द्वितीयवाक्यं सुलभ कर्तुं शक्नुमः लृङ्लकारः जानीमः लृङ्लकारस्य ज्ञानमस्ति चेत् प्रथमवाक्ये कर्तुं शक्नुमः किन्तु त्रयमपि समानार्थकवाक्यानि तत्र वाक्यत्रयम् अर्थः भवान् न उक्तवान् अतः अहं न कृतवान् इति एव अर्थः इदानीम् अग्रे पश्यामः तत्र मध्ये अन्य कोऽपि यदि पठितुम् इच्छन्ति कृपया सूचयतु नो चेत् सुजाता भगिनी एव तत्र अहं प्रेषितवान् महोदय ईमेल् द्वारा हा करपत्रं हा द्वितीय पुटं तत्र स्मः महोदय
अस्तु महोदय
करपत्रमिति तत्र अद्य एव प्रेषितवान् महोदय अस्तु 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 तर्हि सुजाता भगिनी अग्रे इदानीं तत्र अत्र
अभ्यासः अस्ति महोदय
न न भगिनि तत्र अत्रैव अत्र प्रथमे प्रकारे
प्रथमे प्रकारे भविष्यत्कालरूपं ज्ञातव्यम् अडागमव्यवस्था ज्ञातव्या च प्रथमे प्रकारे भविष्यत्कालरूपं ज्ञास्यामः
तत्र नाम लृङ्लकारस्य रूपं कर्तुम् इच्छामश्चेत् तत्र भविष्यत्कालस्य रूपं इति तत्र तस्य ज्ञानं भवेत् खलु अपि तदनन्तरं तत्र अडागम नाम तत्र भूतकालरूपे अकारः आगच्छति खलु अपठत् इति तत्र अडागमः तस्याः व्यवस्था कथमस्ति तदपि तस्य ज्ञानमपि अपेक्षितमस्ति अतः तत्र द्वयोः ज्ञानम् अपेक्षितं तत्र प्रथमविधवाक्यं यदि कर्तुम् इच्छामः अतः तत्र गच्छति गमिष्यति अगमिष्यति इति त्रयोः ज्ञानम् अपेक्षितम्
पश्यति द्रक्ष्यति अद्रक्ष्यत् पश्यति इति लट्लकाररूपमस्ति द्रक्ष्यति रुट्लकारमस्ति अद्रक्ष्यत् लङ्लकारमस्ति
लृङ्लकारः लृङ्लकारः
अद्रक्ष्यत् लृङ्लकारः
वंशीसुधभगिनी नमस्कारः
नमस्ते महोदय महोदय अद्य शृणोमि महोदय क्षम्यतां
पुत्र्याः स्वास्थ्यं समीचीनं नास्ति अस्तु अस्तु चिन्ता मास्तु भवती एव तत्र वैद्या इति उक्तवती खलु भगिनी तत्र अतः तत्र औषधं स्वीकुर्वन्ती अस्ति वा
आं महोदय अहमेव दत्तवती समीचीनमस्ति परन्तु किञ्चित् वीक् अस्ति अतः
चिन्ता मास्तु भगिनि तत्र करपत्रं मया प्रेषितं
ओ अस्तु किम् अस्ति
द्वितीयपुटे लृङ्लकारविषयः
अस्तु महोदय पश्यामि धन्यवादः
समीचीनं नमस्कारः अस्तु सुजाता भगिनी अग्रे
द्वितीयप्रकारे विधिलिङ्गरूपं ज्ञातव्यं
हा यतोहि तत्र वदेत् कुर्याम् इति एव अस्ति खलु तत्र द्वितीयवाक्ये हा अत्र द्वितीयरूपं कर्तुम् इच्छामश्चेत् विधिलिङ्गकारे
भवतु प्रत्ययान्तरूपेण सः स्यात् इत्यादयः योजनीयाः
हा तृतीयविधवाक्ये तत्र किमस्ति वदेत् कुर्याम् इति नास्ति खलु केवलं स्यात् स्याम् इति एव अस्ति खलु
उक्तवान् स्यात्
हा कृतवान्
स्याम्.
अतः तत्र कृतवान् स्याम्, अतः तत्र क्लवतुरूपं तस्य ज्ञानम् अपेक्षितम् अपि अस् धातोः स्यात् स्याम् इति तदपि ज्ञातव्यं हा इति. अतः तत्र एषः तृतीयः प्रकारः,
तृतीयः प्रकारः सरलतमः.
सरलतमः नाम
बहु सरलः,
अतीव सरलः,
अतीव
त्रिषु त्रिषु एष एतद्रूपं अत्यन्तसरलं सरलतम, अतः सरलतमः प्रकारः.
अतः
यतोहि किमर्थं किमर्थम् एषः प्रकारः सरलतम्?
तावतान्तरू तावतप्रत्ययान्तरूपम् अस्ति.
अतः तत् वयं बहुवारं कुर्मः खलु तत्र तावत्पूर्व अतः तत्र एतद्रूपं सरल एतद्रूपं सरलमस्ति. अपि तत्र केवलं तत्र स्यात् तत्र अस् धातोः रूपाणां तत्र विधिलिङ्गकरः जानीमश्चेत् केवलम् एकस्य एकः धातुः अस् धातोः रूपा तस्य विधिलिङ्गकारस्य ज्ञानमस्ति चेत् पर्याप्तं खलु. तत्र कुर्यात् वदेत् एतत् सर्वं तस्य ज्ञानं न अपेक्षितम्. अतः केवलं स्यात् स्यातां स्युः स्याः स्यातं स्यात स्यां स्याव स्याम इति ज्ञानम् अस्ति चेत् लृङ्गकारस्य आवश्यकता एव नास्ति. तस्य अर्थे वयं सरलवाक्यं रचितुं शक्नुमः. अस्तु, इदानीं तत्र अग्रे सरामः. तर्हि भगिनी तत्र यदा भवती चिन्तयति अस्तु अहं बहु किमपि पठितवती वदतु, चिन्ता मास्तु.
ऐ डोण्ट् नो मच् महोदय, जस्ट्
पठतु, तत्र विवरणं कुर्मः, मिलित्वा विवरणं कुर्मः. अस्तु, अग्रे अभ्यासः भगिनि.
अभ्यासः अधु निर्दिष्टानां
करोमि महोदय, अहं समीपे अस्ति इदानीं,
कर्तुं शक्नोति वा महोदय?
करोमि.
अस्तु महोदय, इदानीं तत्र वाक्यत्रयं पश्यतु महोदय, तत्र अर्थः अवगच्छति खलु? तत्र न अभ्यासात् प्राक् महोदय, तत्र उपरि तस्मिन्नेव पुटे उपरि वाक्यत्रयम् अस्ति. तत्र यदि भवान् अवदिश्यत् तर्हि अहम् अकरिष्यम्. द्वितीयवाक्यमस्ति यदि भवान् वदेत् तर्हि अहं कुर्याम्. तृतीयवाक्यमस्ति यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्याम्. पश्यति खलु महोदय, तत् अस्ति खलु? तत्र प्रथमवाक्यमेव तत्र लृङ्लकाररूपं, तस्य अर्थः कः नाम भवान् न उक्तवान् अतः अहं न कृतवान्. यदि भवान् उक्तवान् स्यात् किन्तु भवान् न उक्तवान्, किन्तु यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्याम्. अतः तत्र तस्य अर्थे लिङ्गकाररूपमस्ति यदि भवान् अवदिश्यत् तर्हि अहम् अकरिष्यम् इति. एतद् वर्ग तत्र पूर्वस्मिन् वर्गे वयं दृष्टवन्तः, किन्तु तत्र क्लेशः आसीत्, अतः इदानीं क्लेशः प्रायश किञ्चित् न्यूना भवतु इति चिन्तनम्. अतः इदानीं अग्रे अभ्यासः पठतु महोदय.
धन्यवादः महोदय.
महोदय, द्वितीयवाक्ये अत्र यदि भवान् वदेत् तर्हि अहं कुर्याम्,
तत्र विधिलिङ्गकारः अस्ति, विधिलिङ्गकारः विधिलिङ्गकारः अस्ति. तदेव तत्र स्यात् इति, स्यात् इति अपि अस् धातोः विधिलिङ्गकारः, वदेत् पठेत् गच्छेत् इति सम्भावनार्थे इति वदामः. अतः किन्तु अत्र अर्थः कः अस्ति इत्युक्ते भवान् न उक्तवान् अहमपि न कृतवान् इति अर्थः.
अस्तु
अस्तु,
अभ्यासः. अधो निर्दिष्टानां वाक्यानां तात्पर्यम् अवगत्य योग्यम् उत्तरं चिह्नेन अङ्कयत. अस्तु उदाहरणमस्ति यदि भवान् अवदिश्यत् तर्हि अहम् अकरिष्यम्
यदि तत्र यदि एतद् वाक्यं पश्यामः तत्र यदि भवान् अवदिश्यत् तर्हि अहम् अकरिष्यं लृङ्लकारे अस्ति लृङ्लकारे अस्ति चेत् क्रिया यत् क्रिया अस्ति या क्रिया अस्ति सा क्रिया न कृता तद् न अभवत् अतः तत्र भवान् उक्तवान् वा
यदि भवान् उक्तवान् तर्हि अहं
कृतवान्
न कृतवान्
न न यदि भवान् उक्तवान् इफ् यु हेड् टोल्ड् मी ऐ वुड् हेव् डन् इति वक्तुम् इच्छामः किन्तु भवान् न उक्तवान् यु डिड् नाट् से अण्ड् ऐ डिड् नाट् डु
ओ यदि भवान् उक्तवान्
तर्हि अहं कृतवान् स्यात् किन्तु इदानीं प्रश्नः केवलं प्रश्नः अस्ति महोदय भवान् उक्तवान् अथवा न उक्तवान् अस्ति सत्यं किम् इति प्रश्नः तत्र
यदि भवान् अत्र
महोदय अल्पभाषायाम् एकनिमिषे वदामि तत्र यु हेड् टोल्ड् मी ऐ वुड् हेव् डन् इति अर्थः
अस्तु
किन्तु तत्र डिड् यु टेल् मी नो अतः ऐ डिड् नाट् डु
अतः ओके अस्तु
एतदेव तात्पर्यमस्ति किन्तु अतः तत्र अवदिश्यत् अस्ति चेत् तत्र भवान् न उक्तवान्
भवान् न उक्तवान् आम्
अतः तत्र न उक्तवान् एव सत्यम् अस्ति
परन्तु अत्र द्वयोः पङ्क्तिः सन्ति किल वाक्यं सन्ति किल महोदय अत्र प्रथमः
भवान् तत्र अस्ति भवान् उक्तवान् न उक्तवान् तस् तयोः मध्ये किं सत्यमस्ति भवान् न उक्तवान् एव सत्यं
भवान् न उक्तवान् प्रथमवाक्यम्
इदानीं तत्र भवान् न उक्तवान् अतः अहं कृतवान् वा न अहं न कृतवान्
कृतवान्
अथवा अहं न कृतवान् किं सत्यम् अहं न कृतवान्
कृतवान् अस्तु
अवगच्छ अवगच्छति खलु महोदय तत्र यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्यात् किन्तु भवान् न उक्तवान् अहमपि न कृतवान् इति एकनिमिषः शुभ्रा भगिनी नमस्कारः करपत्रं पठन्तः स्मः भगिनि
नमस्कारः महोदय अहं प्राप्तवती महोदय
अस्तु द्वितीयपुटे स्मः अस्तु अग्रे महोदय अग्रे
यदि भवान् तम् असूचयिष्यत् तर्हि सः कार्यम् अकरिष्यत्
तत्र भवान् सूचितवान् वा
तं यदि भवान् तर्हि न सूचितवान्
न सूचितवान् यतो इदानीं एतत् सर्वम् इमेजिनेशन् महोदय तत्र हेड् हेपण्ड् देन् दिस् वुड् हेव् हेपण्ड् इति अर्थे एतत् सर्वम् अस्ति बट् नथिङ्ग् हेपण्ड् दीस् थिङ्ग्स् डिड् नाट् हेपन् इति अस्तु अतः तत्र यदि भवान् तम् असूचयिष्यत् तर्हि सः कार्यम् अकरिष्यत् किन्तु भवान् सूचितवान् वा न भवान् न सूचितवान् सः कार्यं कृतवान् वा
न कृतवान्
सः कार्यं न कृतवान्
सः कार्यं न कृतवान्
अतः यत्र लृङ्लकाररूपं भवति तत्र सा क्रिया न अभवत्
अस्तु
न अभवत् तत् केवलं कल्पना अस्ति तद् स न सञ्जाता स्वास्थ्य न सञ्जाता अस्तु तृतीयवाक्यं द्वितीयवाक्यमपि करोतु महोदय
यदि भवती वस्त्रम् आदास्यात्
अदास्यात्
तर्हि सः अक्षालयिष्यात्
अक्षालयिष्यत् नाम तत्र तत्र वस्त्रं यदि तत्र रजकाय रजक नाम वासर्मन् यदि रजकाय सा दास्य अदास्यत् तत्र दत्तवती स्यात् तर्हि सः रजकः तस्य तत्र वस्त्रस्य क्षालनं कृतवान्
कृतवान्
स्यात्, किन्तु सा न दत्तवती अतः सा न कृतवान्, अतः भवती वस्त्रं दत्तवती वा न
दत्तवती ओके न भवती वस्त्रं दत्तवती
सः क्षालितवान् वा अथवा न क्षालितवान् न क्षालितवान् इति हा इति तत्र अतः तत्र अपि लृङ्लकारस्य रूपम् अस्तु इदानीं तत्र शुभदा भगिनी तत्र अग्रे पठतु भगिनि किन्तु तस्मात् प्राक् तत्र द्वितीयपुटे भगिनि एव तत्र मुख्य अंशः अस्ति उपरि द्वितीयपुटस्य उपरि वाक्यद्वयम् अस्ति भगिनि तदेकवारं पठतु तत्र
लुङ्गर्थं लृङ्गर्थः क्षम्यतां लृङ्गर्थः त्रिधा वक्तुं शक्यते भवान् न उक्तवान् अहं न कृतवान्
इति तात्पर्यम् एतद् वक्तुम् इच्छामः भवान् न उक्तवान् अतः अहं न कृतवान् इति वक्तुम् इच्छामः तस्य त्रैविध्यम् इदानीं
त्रिविधवाक्यं प्रथमं तु यदि भवान् अवदिष्यत् तर्हि अहम् अकरिष्यम् द्वितीय वाक्यं यदि भवान् वदेत् तर्हि अहं कुर्याम् तृतीयं यदि भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्याम्
तत्र प्रथमवाक्ये तत्र लृङ्लकार साक्षात् लृङ्लकारस्य प्रयोगः द्वितीयवाक्ये द्वितिलिङ्गकारस्य प्रयोगः तत्र वदेत् कुर्याम् इति तृतीयवाक्ये तत्र केवलं स्यात् स्याम् इति केवलम् अस्धातोः विधिलिङ्गकारः किन्तु वदति इति स्थाने क्तवतु रूपम् उक्तवान् कुर्यां स्थाने कृतवान् स्यात् इति अतः तत्र तृतीय तत्र विधत्रयम् अस्ति समानार्थकवाक्यानि सन्ति एतानि लृङ्लकारस्य साक्षात् प्रयोगः प्रथमवाक्ये द्वितीयवाक्ये किञ्चित् सरलमस्ति तृतीयवाक्यम् अतीवसरलमस्ति यतोहि तत्र तावत् ज्ञानमेव अपेक्षितम् अपि अस्धातोः तत्र स्यात् स्याम् एतत्तु तस्य प्रयोगः बहुवारं वयं कृतवन्तः खलु अतः तत्र विधात्रयम् अस्ति इति मनसि यदि स्थापयामः लृङ्लकारस्य अर्थः कः तत्र लृङ्लकारः यत्र भवति वाक्ये तत्र क्लेशः न भवति अस्तु सुलभतया तत्र सब्स्टिट्यूशन् कृत्वा अस्तु एषः एव अर्थः इति ज्ञातुं शक्नुमः खलु अतः एतस्य अभ्यासस्य उद्देशः सः एव नाम लृङ्लकारस्य अर्थः सुलभतया मनसि स्थापितः भवतु इति अतः तत्र अस्तु इदानीं तत्र तृतीयवाक्यं भगिनि अग्रिमे पुटे
तृतीयं वाक्यं यदि सा अत्र आगमिष्यत् तर्हि वस्त्राणि अद्रक्ष्यत्
अत्र लृङ्लकारः अतः तत्र क्रिया न अभवत्
अतः अतः न आगतवती न दृष्टवती इति
न आगतवती सा वस्त्राणि न दृष्टवती इति एव समीचीनम् अस्तु अग्रिमम्
यदि भवन्तः न अस्मारयिष्यन् तर्हि अहं न अगमिष्यम् यदि भवन्तः न अस्मारयिष्यन् तर्हि अहं न अगमिष्यम् भवन्तः स्मारितवन्तः अतः अहं गतवान् इति
इदानीं किन्तु तत्र एतावत् कृतवन्तः अतः इदानीं किञ्चित् क्लेशः अस्ति किन्तु बहु कठिनं नास्ति खलु भगिनि इदानीं
तर्हि लृङ्लकारस्य यः वाक्यं दत्तमस्ति तत्र यदि न इति
आगच्छति चेत्
तत् तस्य तत्र पासिटिव् इति अस्ति
इति अस्ति सत्यं भगिनि,
परन्तु न इति नास्ति चेत् तत्र नेगेटिविटि अस्ति,
हा तद् न अभवत् इति, हा तत् असत्यं, तद् असत्यम् इति चिन्तनम्. अत्र तत्र भागद्वये अपि नकारः अस्ति अतः द्वयमपि अभवत्. इदानीम् अग्रिमे वाक्ये
पञ्चमं वाक्यं, यदि सः उत्तरम् अज्ञास्यत् तर्हि मौनेन न अस्थास्यत्. सः उत्तरं ज्ञातवान्
अथवा न ज्ञातवान्?
यदि सः उत्तरम् अज्ञास्यत् तर्हि मौनेन न अस्थास्यत्. अतः अत्र तु सः उत्तरं ज्ञातवान् अतः मौनेन न स्थितवान् इति. अत्र काम्बिनेशन्
न न न न पुनः पुनः यत्र नकारः नास्ति तत्र तद् न अभवत् खलु, अतः तत्र सः उत्तरम् अज्ञास्यत् तत्र किं सः उत्तरं ज्ञातवान् वा?
अज्ञास्यत्, अच्छा ओके, यत् किञ्चित् भ्रमः जातः,
चिन्ता मास्तु भगिनि, चिन्ता.
यदि सः उत्तरं न ज्ञातवान् तर्हि मौनेन न स्थितवान्, क्षम्यतां पुनः, यदि सः उत्तरं ज्ञातवान् तर्हि सः मौनेन स्थितवान्.
हा तत्र एतत् चिन्तयतु भगिनि, यदि सः उत्तरं ज्ञातवान् स्यात्, यदि सः उत्तरं ज्ञातवान् स्यात् तर्हि सः मौनेन न स्थितवान् स्यात् खलु, खलु सः उक्तवान् स्यात् किन्तु उक्तवान् स्थाने न मौनेन न स्थितवान् इति स्थापितवन्तः तावदेव. अतः तत्र किं सः उत्तरं ज्ञातवान् वा? यदि सः उत्तरं ज्ञातवान् स्यात् इति भागः अस्ति, तदस्ति चेत् सः किं तत्र सः ज्ञातवान् वा उत्तरम्?
सः उत्तरम् अज्ञास्यत् इत्युक्ते सः उत्तरं ज्ञातवान्?
न न अत्र अज्ञास्यत् इति तत्र लृङ्लकारः अस्ति भगिनि.
क्षम्यताम्,
चिन्ता मास्तु भगिनि, तत्र अज्ञास्यत् इति तत्र भूतकाररूपं नास्ति, लङ्काररूपं नास्ति. अपि तत्र अ इति तत्र नै इति अर्थे अपि नास्ति. तत्र उत्तरम् एतद् अतः तत्र अर्थः सः उत्तरम् अज्ञास्यत् इति तत्र विधात्रय तत्र अर्थः त्रिधा इति भवती पठितवती खलु तत्र, अतः एतद् भागं स्वीकरोतु, यदि सः उत्तरम् अज्ञास्यत् तद् प्रथमवाक्यम् इव अस्ति खलु. इदानीं तत्र द्वितीयवाक्यरूपं किं भवति, यदि सः उत्तरं तत्र जानीयात् इति भवति खलु, लिङ्गकारः
जानीयात्,
हा यदि सः उत्तरं जानीयात् तर्हि सः मौनेन न तत्र, हा तत्र तिष्ठेत् मौनेन न तिष्ठेत् खलु, मौनेन न तिष्ठेत् इति द्वितीयरूपम्. इदानीं द्वितीयरूपम् अस्ति, यदि सः उत्तरं ज्ञातवान् स्यात् तर्हि सः मौनेन न तिष्ठवान् स्यात्,
स्थितवान्. अहं तथैव उक्तवती महोदय.
इदानीम् अतः तत्र सः किं तत्र उत्तरं ज्ञातवान् वा अथवा न ज्ञातवान्?
ज्ञातवान्.
न न न न सः न ज्ञातवान्,
उत्तरं ज्ञातः अस्ति अतः सः मौनं न धारयति इति.
न न न किन्तु तद् न अभवत्,
तत्र न इति नास्ति खलु महोदय.
अस्तु अस्तु भगिनि एकनिमिषः, मम अपि भ्रमः प्रायशः अस्ति.
तत्र सः उत्तरं न जानाति अतः सः मौनेन न तिष्ठति.
ओ क्षम्यतां, सत्यं सत्यं भगिनि, हा 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 हा.
अतः प्रथमं सः उत्तरं ज्ञातवान् अतः मौनेन न स्थितवान्. अतः प्रथमं विकल्पः अपि च चतुर्थः विकल्पः अत्र
अज्ञास्यत् अज्ञास्यत् इति तत्र ज्ञातवान् इति एव अर्थः खलु भगिनि अज्ञातवान् इति नास्ति खलु
हा ज्ञातवान् सत्यं सः उत्तरं ज्ञातवान्
यदि सः उत्तरं ज्ञातवान् किन्तु हा यदि सः उत्तरं मौनेन न स्थितवान् न भगिनि सः न उत्तरं न ज्ञातवान् यतोहि तत्र मौनेन न अस्तास्यत् इति अस्ति नाम तत्र मौनेन एव सः स्थितवान् तदेव सत्यं खलु नकारः एकवारम् अस्ति चेत् तत्र क्लेशः अस्ति किन्तु क्लेशः अस्ति किन्तु
अतः सः उत्तरं न ज्ञातवान् अतः सः मौनेन स्थितवान् इति भवति
खलु भगिनि
विपरीत अर्थे
अतः तत्र यदि सः उत्तरं ज्ञातवान् स्यात् तर्हि सः मौनेन न तिष्ठवान् स्यात् किन्तु सः उत्तरं न ज्ञातवान् तत्र तस्य ज्ञानं नास्ति अतः तत्र न ज्ञातवान् अतः सः मौनेन स्थितवान् समीचीनं
सरलं दृश्यते परन्तु बहु जटिलः
किन्तु किमस्ति एतादृशप्रयोगः वयम् आङ्ग्लभाषायां बहुवारं कृतवन्तः इफ् यु हे टोल्ड् मी ऐ वुड् हव् डन् सो इति खलु किन्तु तत् इदानीं तत्र संस्कृतेन एतादृशप्रयोगः कथम् अस्माभिः करणीयः इति इदानीमेव तत्र अस्माकं ज्ञानं भवति तावदेव अस्तु इदानीं तत्र सुजाता भगिनी अन्तिमवाक्यं भवती करोति वा
आं महोदय यदि दर्पणः भूमौ अपतिष्ठत्
अपतिष्यत्
तर्हि भग्नः अभविष्यत् दर्पणः भूमौ
अपतिष्यत्
अपतिष्यत्
न अत्र नकारः नास्ति केवलम् अपतिष्यत् तर्हि भग्नः अभविष्यत् इदानीं तत्र दर्पणभूमौ पतितः वा अथवा न पतितः
न पतितः
न पतितः हा भूमौ न पतितः
तर्हि भग्नः न अभवत्
हा तत्र भग्नः जातः वा न जातः वा
न जातः
अतः तत्र यदि दर्पणः भूमौ अपतिष्यत् किन्तु भूमौ सः न पतितः अपि दर्पणः भग्नः न जातः अस्तु इदानीं तत्र लृङ्लकारस्य अर्थः कः इति इदानीं तत्र प्रथमविधवाक्यं स्वीकृत्य उदाहरणानि रचितानि एतावत् इदानीं द्वितीय अभ्यासे तत्र किं भवति तत्र पश्यामः तत्र इदानीं तत्र आगतवान् दत्तवान् इति अस्ति तत्र हा इदानीं तत्र निर्माणं लृङ्लकाररूपस्य निर्माणम् इदानीं करणीयम् अस्तु भगिनि भवती एव आरम्भं करोतु तत्र
लृङ्लकाररूपयुक्तानां वाक्यानां निर्माणं कुरुत उदाहरणमस्ति भवान् न आगतवान् अहं न दत्तवान् यदि भवान् आगमिष्यत् तर्हि अहम् अदास्यम्
तत्र अदास्यम् इति तत्र आगमिष्यत् इति अस्ति तत्र गच्छति इति तत्र लृङ्लकारः किं भवति
गमिष्यति
तत्र
रुङ्लकार
आगमिष्यत् हा ऋस्वाकारः भवति किन्तु एतदस्ति आगच्छति इति अतः अकारः तत्र उपसर्गः अस्ति अतः आगमिष्यत् इति तत्र आगच्छत् आगमिष्यति मेलनेन आगमिष्यत् इति रूपम् अतः तत्र भवान् आगतवान् अहं न दत्तवान् यदि भवान् आगमिष्यत् तर्हि अहम् अदास्यम्
अहं न दृष्टवान् अहं विषयं न सूचितवान्
अहं तं न अद्रक्ष्यम् अद्रक्ष्यं
तर्हि अहं विषयं न
न इति नास्ति यदि अहं तम् अद्रक्ष्यम् अद्रक्ष्यं यदि अहं तम् अद्रक्ष्यं तर्हि
विषयम्
अहम् असूचयिष्यम् असूचयिष्यम् असूचयिष्यति असूचयिष्यम् असूचयिष्यम् पूर्वमपि आसीत् खलु भगिनि तत्र प्रथमे पुटे एव असूचयिष्यम् इति रूपम्
आसीत्
तदेव अस्ति अत्रापि असूचयिष्यम् अस्तु अग्रिममपि करोति वा
महोदय सः वेगेन न गतवान्
अपघातः नाम एक्सिडेण्ट् अपघातः न जातः
अपघातः इत्युक्ते किं महोदय
एक्सिडेण्ट् भगिनि एक्सिडेण्ट्
अपघातः न जातः
अपघातः न जातः
अपघातः क्षम्यतां महोदय सः वेगेन न गतवान्
वेगेन न न इदानीं न इति उदाहरणं पश्यतु यत्र नकारः अस्ति तत् तद् नाम सः न गतवान् अतः किन्तु इदानीं यदि सः वेगेन गच्छति इति गच्छति
गमिष्यत्
हा वेगेन अगमिष्यत्
अगमिष्यत् तर्हि अपघातः अपघातः जातः जातः रुङ्लकार किम्
अस्ति तत्र अस्तु अभवत् इति अभविष्यत् इति अभविष्यत्
अभविष्यत्
अपघातः अभविष्यत्
अभविष्यत्
अभविष्यत् इति हा समीचीनम् एकनिमिष भगिनि हा नरेश् महोदय नमस्कारः
वेदनमस्कारः महोदय बहु विलम्बेन आगतवान्
हा चिन्ता मास्तु महोदय तत्र करपत्रं मया प्रेषितं तत् प्राप्तं वा वेदभगिनी नमस्कारः
प्राप्तं
हा तत्र तत्र मूलविषयः पुनः एकवारं तत्र आगतवन्तः इति कृत्वा तत्र मूलविषयः तत्र करपत्रे वेदभगिनी प्राप्तवती वा करपत्रम् अस्तु तत्र मूलविषयः अस्ति तत्र लृङ्लकारः तत्र द्वितीयपुटं पश्यतु करपत्रे द्वितीयपुटं पश्यतु तत्र भवती एव वेदभगिनी भवती एव तत्र पठतु एकवारं तत्र लृङ्लकारः
लिङ्ग लृङ्गर्थः त्रिधा वक्तुं शक्यते तदेव
इति हा हा तदेव
लिङ्गर्थः त्रिधा वक्तुं शक्यते त्रिधा वक्तुं शक्यते भवान् न उक्तवान् अहं न कृतवान्
इति एव तात्पर्यं तदेव वक्तुम् इच्छामः यु डिड् नाट् टेल् मी सो ऐ डिड् नाट् डू इति अर्थः खलु एतद् वक्तुम् इच्छामः अतः विकल्पत्रयम् अस्ति
यदि भवान् अवदिश्यत् तर्हि अहम् अकरिष्यम्
इति प्रथमरूपं द्वितीयरूपं
यदि भवान् वदेत् लङ्लकारे तर्हि अहं कुर्याम् तद् लङ्लकारे अस्ति
न न न अग्रे पश्यामः तृतीयरूपं
भवान् उक्तवान् स्यात् तर्हि अहं कृतवान् स्याम्
इति रूपत्रयम् अस्तु तत्र प्रथमवाक्ये लृङ्लकारः एव
प्रथमवाक्ये लिङ्लकार
लृङ्लकारः लृङ्लकारः
द्वितीयवाक्ये लङ्लकारे
न न न विधिलिङ्लकारः अस्ति
विधिलिङ्गकारे
विधिलिङ्गकारः तृतीयवाक्ये किम् अस्ति
तव तु प्रत्यय
हा तव तु प्रत्यय अपि केवलं स्यात् स्याम् इति अस्धातोः विधिलिङ्लकारः
अस्धातो विधिलिङ्लकारः आं महोदय
हा अतः तत्र तृतीयविधवाक्यं सुलभमस्ति तृतीयविधवाक्यं सुलभमस्ति प्रथमविधवाक्यं किञ्चित् कठिनमस्ति लृङ्लकारः वयं दृष्टवन्तः खलु तत्र अर्थः कः एषः अर्थः वा इति तत्र किञ्चित् तृतीयविधवाक्यं सुलभमस्ति अतः तत्र वाक्यत्रयस्य तात्पर्यं किं भवान् न उक्तवान् अतः अहं न कृतवान् अतः तत्र यदि भवान् अवदिश्यत् तत्र अर्थः कः भवान् उक्तवान् वा न उक्तवान्
न
तर्हि अहम् अकरिष्यं तर्हि अहं कृतवान् वा न अहं न कृतवान्
न कृतवान्
अतः तत्र क्रियाद्वयमपि न अभवत् तत्र इति तात्पर्यम् अस्तु तत्र नरेश् महोदय अवगतं वा
महोदय
हा अस्तु समीचीनं हा अस्तु वेदा भगिनी धन्यवादः गीताञ्जलि भगिनी नमस्कारः
नमस्ते महोदय क्षम्यतां महोदय बहु विलम्बे अभवत्
चिन्तामस्तु भगिनि करपत्रमस्ति खलु प्राप्तवती वा
ईमेल् मध्ये अस्ति वा
हा अस्ति भगिनि अस्ति क्षम्यतां विलम्बेन अहमपि प्रेषितवान् हा किन्तु तत्र लृङ्लकारस्य विषये जनार्दन हेग्डे महोदयस्य पुस्तकात् सम्भाषणसोपानम् इति अस्ति तस्मात् स्वीकृतं लृङ्लकार इति विषयः तत्र द्वितीयपुटे उपरि तत्र वाक्यत्रयम् अस्ति भगिनि द्वितीयपुटं प्रथमतया पठतु तदनन्तरं तत्र किम् अस्ति इति भवती ज्ञातुं शक्नोति अस्तु तर्हि तत्र
पत्रं महोदय ईमेल् मध्ये
ईमेल् मध्ये अस्ति भगिनि ईमेल् मध्ये अस्ति भगिनि अहं प्रेषितवान्
कृष्णफलकं
न न न न तद् नास्ति भगिनि तदनन्तरम् अन्यत् 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 ईमेल् अस्ति भगिनि
करपत्रं फोटुडे अस्तु अस्तु
अस्तु
क्षम्यतां
चिन्ता मास्तु अस्तु तर्हि इदानीं तत्र अग्रे तत्र सुजाता भगिनी एतावत् भवती कृतवती अन्यत् अपि कर्तुम् इच्छति वा
महोदय
अस्तु
धन्यवादः
इदानीं तत्र अपघातः न जातः
महोदय अन्यत्
तत्र तृतीयवाक्यं कर्तुम् इच्छति वा तत्र
अपघातः न जातः दन्ताः न पतिताः
एतत् अस्ति अभ्यास तृतीयपुटे अभ्यासः अस्ति तृतीयवाक्यम् अस्तु तत्र किम्
अपघातः
अपघातः न जातः अतः तत्र अभवत् इति चिन्तयतु अपघातः न अभवत्
अपघातः न अभवत् तर्हि दन्ताः पतिताः
तत्र पतति तत्र पतन्ति न न पतन्ति
न पतन्ति
न पतन्ति
कुत्र अस्ति
भगिनी तृतीयपुटे अधोभागे द्वितीय द्वितीयाभ्यासः
अपघातः न
थर्ड् पेज् लास्ट् सेण्टेन्स् अतः तत्र भगिनी जातः इति स्थाने अभवत् इति चिन्तयतु पतन्ति इति चिन्तयतु अथवा अपठन् इति चिन्तयन्तु
अपघातः न अभवत् दन्ताः
न
अपतन्
इदानीं तत्र लृङ्लकार रूपं यदि
यदि अपघातः न
न इदानीं तत्र पुनः उदाहरणं
अपघातः अभविष्यत् तर्हि दन्ताः
अपतिष्यन् तत्र यदि अपघातः अभविष्यत् तर्हि दन्ताः अपतिष्यन् किन्तु अस्ति अपघातः न अभवत् अपि दन्ताः न पतिताः. धन्यवादः भगिनी, धन्यवादः. अस्तु इदानीं तत्र शुभदा भगिनी, तत्र पुनः तत्र अस्मिन् अभ्यासे तत्र प्रथम उदाहरणम् एकवारं पठित्वा तदनन्तरं चतुर्थवाक्यं करोति वा भगिनि? शुभदा भगिनी न श्रूयते. अस्तु तत्र
अहं पठामि महोदय.
भवती पठति वा? अस्तु भगिनि, गीताञ्जलि भगिनी. अतः तत्र प्रथमतया तत्र द्वितीयाभ्यासे पुनः तत्र उदाहरणं पठतु भगिनि, तदनन्तरं चतुर्थवाक्यं करोतु.
अस्तु, तत्र भवान् न आगतवान् इति न
इति हा सत्यं हा
भवान् न आगतवान्, अहं न दत्तवान्
इति वस्तुस्थितिः. एतदेव वक्तुम् इच्छामः, भवान् न आगतवान् अतः अहं न दत्तवान् इति वक्तुम् इच्छामः. अतः तत्र लृङ्लकाररूपं कथं भवति इति दत्तमस्ति, तद् पठतु भगिनि. यदि
भवान् आगमिष्यत् तर्हि अहम् अदास्यम्
इति रूपं, किन्तु तत्र भवान् न आगतवान् अहमपि न दत्तवान् इति अर्थः.
सत्यम्. अस्तु, सो दन्ताः न पतिताः, वैद्यः न दृष्टः.
अतः यदि
दन्ताः
न पश्यतु पुनः उदाहरणं पश्यतु. भवान् न आगतवान्
क्षम्यता महोदय. यदि दन्ताः अपतिष्यन्
हा समीचीनं, यदि दन्ताः अपतिष्यन्
तर्हि वैद्यः
अद्रक्ष्यम् अहं वैद्यम् अद्रक्ष्यम्
न अहमपि नास्ति चेत् तत्र
न दृष्टः
वैद्यः न दृक्
दृष्टः
अपश्यत् वैद्यः तत् तत् कर्मणि अर्थे अस्ति खलु भगिनि, तप्रत्ययः तत्र मया अस्तु तत्र मया इति अस्ति, किन्तु कर्मणि प्रयोगे अपि लृङ्लकारः मास्तु भगिनि.
अस्तु महोदय, यदि मया नास्ति तत्र
वैद्यः अहं वैद्यं न दृष्टवान् इति स्वीकरोतु भगिनि.
अहं वैद्यं न दृष्टवान् तत्र
इति स्वीकरोतु.
यदि दन्ताः अपतिष्यन्
तर्हि
अहं वैद्यः
वैद्यम् अदृक्ष्यम् अदृक्ष्यम् अपश्यत् किन्तु द्रक्ष्यामि इति भवति खलु, द्रक्ष्यामि इति
अद्रक्ष्यामि
अतः इति भवति अद्रक्ष्यम् इति भवति.
अहं वैद्यं न अदृक्ष्यम्
नकारः नास्ति केवलम् अहं वैद्यम्
अहं वैद्यम्
अदृक्ष्यम् इति तत्र नकारः यद् न अभवत् तत्र नकारे यद् वदामः तत्र द्वयमपि न अभवत्, अतः एव तत्र अहम् उक्तवान् तत्र वाक्यत्रयं यत् द्वितीयपुटे अस्ति उपरि तदेव मूलविषयः तत्र द्वितीयपुटे
लृङ् अस्ति चेत् पतिताः अपि च दृष्टः तदेव स्वीकरणीयम्. किन्तु यदि यदि पतिताः तर्हि दृष्टः इति स्वीकृत्य वाक्यरचनं
सत्यं सत्यं भगिनि सत्यं भगिनि
हिन्दीभाषायां समान एव
सत्यं 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 तत्र किन्तु लृङ्लकारः यत्र अस्ति तत् क्रियाद्वयमस्ति क्रियाद्वयमपि न अभवत् शुभदा भगिनी प्रश्नः आसीत् वा भगिनि
न महोदय अवगतम्
अस्तु अस्तु समीचीनं अस्तु अस्तु इदानीम् अग्रे तत्र नरेश महोदय अग्रे कर्तुम् इच्छति वा
आं महोदय अहं न पठितवान् अहं प्रथमश्रेणीं न प्राप्तवान् यदि यदि अहं अपठिष्यं तर्हि अहं प्रथमश्रेणीं प्राप्स्याम्
हा प्राप्स्यां समीचीनं प्र इति उपसर्गः आप्नोति इति स्थाने आप्स्याम् इति भवति लृङ्लकारः गतवर्गे दृष्टवन्तः प्राप्स्यां समीचीनं महोदय हा यदि अहम्
अपठिष्यं
तर्हि
अहं प्रथमश्रेणीं प्राप्स्यं
प्राप्स्यं समीचीनं महोदय समीचीनम् अस्तु अग्रिमम्
अहं स्मृतवान् अहं पत्रं न लिखितवान् यदि अहं न अस्मृश्यं
तत्र स्मरति इति स्मरिष्यति
स्मरिष्यम्
अस्मरिष्यम् इति प्रायशः
यदि अहं न अस्मृश्यं तर्हि अहं पत्रं
केवलं लेखिष्यं खलु लेखिष्यं
लेखिष्यं
अहं
तत्र लिङ्क् कथमस्ति अलिख अ नास्ति
किन्तु अलिखत् इति अस्ति महोदय लङ्लकारः लङ्लकारः अलिखत् खलु लिखति अलिखत्
अलिखत्
किन्तु भविष्यत्कालरूपमस्ति लेखिष्यति इति खलु
लेखिष्यति
अतः अलेखिष्यत्
अलिखिष्यत्
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 खलु
अहम् अस्ति महोदय
धन्यवादः भगिनि तत्र रूपस्य चिन्तने पुरुषः कः इति वयं धन्यवादः हा तत्र अहम् अलेखिष्यम् इति भवति इति
अलेखिष्यम्
अहम् अलेखि अहं न अलेखिष्यम्
अहं न अलेखिष्यम्
ओ क्षम्यतां नकारः केवलं प्रथमभागे एव
यदि अहं न अस्मरिष्यं तर्हि अहं पत्रम् अलेखिष्यम्
अलेखिष्यम् इति उत्तमं समीचीनं महोदय हा अस्तु धन्यवादः हा अस्तु इदानीं वेदा भगिनी कर्तुम् इच्छति वा
महोदय अहं न दृष्टवान् सः एवं कृतवान् अहं न दृष्टवान् सः एवं कृतवान् यदि अहम्
अदृश्यं
सः
तर्हि
सः एव कृतवान्
लृङ्लकारः कः
कर्तिष्यति
सोपानेन गच्छतु तत्र भूतकालरूपं भविष्यत्कालरूपं तदनन्तरं लृङ्लकारस्य रूपं करोति इति
करोति लट्लकारे लङ्लकारे अकरिष्यत्
तदेव अकरिष्यत् करोति अकरोत् करिष्यति मेलनेन अकरिष्यत्
अकरिष्यत् तर्हि सः एवम् अकरिष्यत्
हा किन्तु तत्र न स्थापनीयम् अस्ति खलु
महोदय सः तर्हि सः एवं न अकरिष्यत्
हा इदानीं पूर्णवाक्यं
यदि अहं यदि अहम् अदृक्ष्यं तर्हि सः एवम् सः एवं न अकरिष्यत्
यदि अहम् अद्रक्ष्यं तर्हि सः एवं
अदृक्ष्यं तर्हि सः एवं न अकरिष्यत्
अकरिष्यत् इति समीचीनं भगिनि हा
अग्रे
सः
कुपितः न जातः सः कुपितः न जातः सः भवन्तं न निन्दितवान् सः कुपितः न जातः सः भवन्तं न निन्दितवान्
यदि अभवत् इति स्वीकरोतु
सः यदि सः कुपितः न कुपितः न जातः
अभविष्यत् तत्र पुनः
कुपितः यदि सः कुपितः न अभविष्यत्
न न न पुनः भगिनि तत्र उदाहरणं पश्यतु तत्र द्वितीयाभ्यासस्य उदाहरणं पश्यतु
द्वितीयाभ्यासे वा भवान् आगतवान् अहं न दत्तवान् दत्वा
तत्र नकारः कुत्र दृश्यते
भवान् न आगतवान् यदि भवान् अगमिष्यत्
तत्र अगमिष्यत् आगमिष्यत् स्थाने न तत्र नकारः अस्ति वा
न न न
अतः
भवान् आगमिष्यत् तर्हि अहम् अदास्यं तत्र सः कुपितः न जातः तत्र यदि सः कुपितः अभविष्यत् तर्हि सः तर्हि सः भवन्तं निन्दितवान् निन्दिष्यति अनिन्दिष्यत् तर्हि यदि सः कुपितः अभवत् तर्हि
अभविष्यत्
तर्हि सः भवन्तम्
अनिन्दिष्यत् समीचीनं भगिनि समीचीनम् अस्तु तत्र शुभदा भगिनी अग्रे कर्तुम् इच्छति वा
महोदय करोमि कार्यं न समाप्तं सः निद्रां न कृतवान् कार्यं न समाप्तं यदि कार्यं न समाप्स्यत् आपधातु खलु महोदय समाप्स्यत् यदि कार्यं अस्तु तर्हि यदि कार्यं समाप्स्यत् यदि कार्यं समाप्स्यत् तर्हि सः निद्राम् अकरिष्यत्
हा समीचीनं समीचीनं हा अन्तिमम्
अन्तिमं वृक्षः मम उपरि न पतितः अहं न मृतः अतः एव अहं वदामि वृक्षः मम उपरि न पतितः यदि वृक्षः मम उपरि अपतिष्यत् तर्हि अहम् अमरिष्यं
समीचीनं भगिनि समीचीनं एतत् साधारणतया जनार्दन हेग्डे महोदयस्य पुस्तके एतादृशवाक्यं न भवति दृढतया अस्ति किन्तु अस्तु समीचीनं भगिनि अस्तु अतः तत्र इदानीं तत्र सर्वेषां कृते तत्र लृङ्लकारस्य क्लेशः गतः इति चिन्तयामि इदानीं तत्र किञ्चित् गतः इति चिन्तयामि पश्यामः अस्तु तर्हि अग्रे तत्र नरेश् महोदय अग्रे पठति वा तत्र अग्रिमध्ये
लङ्गर्थे लृङ्गर्थे विधिलिङ्लकाररूपम् उपयुज्य वाक्यानां निर्माणं कुरुत भवान् न पृष्टवान् सः न दत्तवान् यदि भवान् पृच्छेत् तर्हि सः दद्यात्
इदानीं केवलं विधिलिङ्गकारस्य
विधिलिङ्गकारः
तत्र त्रैविध्यं दृष्टवन्तः खलु, तत्र एकम् आसीत् तत्र लृङ्लकार अर्थः, द्वितीयवाक्ये केवलं विधिलिङ्गकारः, तृतीयवाक्ये तव तु प्रत्ययः अपि स्यात् इति
स्यात्.
हा, इदानीं तत्र तव तु रूपं दत्तमस्ति, विधिलिङ्गकाररूपं करणीयमस्ति अस्माभिः.
सः न दत्तवान्, अहं न नीतवान्. यदि सः ददेत्
दद्यात्, सः दद्यात्,
यदि सः दद्यात् अहं
तत्र नयेत्
नयेयं
नये तत्र नये
नयेयम्
सत्यं सत्यं हा
यदि सः दद्यात्
महोदय तत्र नयेयम् इति वा
नयेयम् अहं चिन्तयामि नयेयम् उत्तमपुरुष एकवचनं नयेयं द्विवचने नयेयाव
हा सत्यं 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 महोदय किन्तु नयेयम् एव सत्यं
नयेयं
नयेयं हा अतः पूर्णमस्ति महोदय.
यदि सः दद्यात् तर्हि अहं नयेयं
नयेयम् इति समीचीनं. हा अस्तु, अग्रे द्वितीयवाक्यम्.
अहं ग्रामं न गतवान्, अहं पितामहं न दृष्टवान्. यदि अहं ग्रामं गच्छेत्
गच्छेयं
यदि अहं ग्रामं गच्छेयं तर्हि अहं पिता दृष्टवान् पश्येयम्
हा तत्र पितामहं पश्येयम् इति प्रायशः एव अस्ति
पश्येयम्
इति हा कोऽपि स्मरति वा पश्येयम् इति चिन्तयामि. हा
पश्येयं यदि अहं ग्रामं गच्छेयं तर्हि अहं पितामहं पश्येयम्
हा इति चिन्तयामि महोदय सत्यं हा तत्र विधिलिङ्गकारः पश्येयं हा समीचीनं महोदय अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे कर्तुम् इच्छति वा
करोमि महोदय. अम्बा न दत्तवती, अहं न खादितवान्. यदि अम्बा दद्यात् हा क्षम्यतां दद्यात् तर्हि अहं
तर्हि अहं खादेयं
तर्हि अहं खादेयं
यदि अम्बा
पुनः वदतु महोदय यदि अम्बा
दद्यात्
यदि अम्बा दद्यात् तर्हि अहं
खादेयम्
रक्षकः आसीत् चोरः चौर्यं न कृतवान् यदि रक्षकः यदि रक्षकः भवेत्
किन्तु न भवेत्
रक्षकः आसीत् हा यदि रक्षकः न भवेत् चोरः चौर्यं तर्हि चोरः चौर्यं
कुर्
विधि कुर्यात्
कुर्यात् हा तर्हि चोरः चौर्यं
कुर्यात्.
चोरः चौर्यं कुर्यात्. समीचीनं भगिनि. अस्तु, वेदा भगिनी अग्रे.
दण्डः दृढः आसीत्, दण्डः भग्नः न अभवत्. दण्डः यदि दण्डः दृढः भवेत्
न भवेत्.
ओ,
अथवा किन्तु आसीत् इति अस्ति, अतः स्यात्.
यदि दण्डः दृढः न स्यात् तर्हि दण्डः भग्नः भग्नः अभवत् तत् भवेत्
भवेत् भग्नः भवेत्. समीचीनं भगिनि.
सः परिश्रमं न कृतवान्, सः फलं न प्राप्तवान्. सः परिश्रमं
यदि 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 तर्हि
यदि सः परिश्रमं न कुर्यात्.
न न न न पुनः तत्र उदाहरणं पश्यतु.
ओ, सः यदि सः परिश्रमं कुर्येत्
कुर्यात्
तर्हि सः फलं न फलं न प्राप्तवान्. तस्य प्राप् किमर्थं विधिलिङ्गकार्ये प्राप्तवान्
प्राप्येत्
वा
आप्नोति इति तत्र किमस्ति?
आप्नोत् प्राप्नोत् वा तत्र न स्मरामि महोदय. तर्हि
प्राश आप्नुयात् भगिनि, प्राप्नुयात्.
तर्हि सः फलं
प्राप्नुयात्
प्राप्नुयात्
यदि सः परिश्रमं कुर्यात् तर्हि सः फलं प्राप्नुयात्. समीचीनं भगिनि. अस्तु, अग्रे सुजाता भगिनि अन्तिमं तत्र.
आं महोदय.
हा,
सः सम्यक् न श्रुतवान्, सः तात्पर्यं न ज्ञातवान्. यदि सः सम्यक् न
इदानीं तत्र
न यदि सः सम्यक् श्रोष्येत्
हा तत्र तत्र विद्लिङ्गकारः किम् अस्ति? शृणोति इति
शृणोति श्रोष्येत्
करोति कुर्यात् श्रोष्यात् वा
सम्यक् न श्रुतवान्
कोऽपि स्मरति वा?
शृणुयात्
शृणुयात् शृणुयात् शृणुयात्. समीचीनं, धन्यवादः. हा, यदि सः सम्यक् शृणुयात्
तर्हि सः तात्पर्यं
जानीयात्
जानीयात्
हा जानीयात्. यदि सः सम्यक् शृणुयात् तर्हि सः तात्पर्यं समीचीनम्. अस्तु, अग्रिमम्.
सः पर्वतम् आरूढवान्, कीर्तिं प्राप्तवान्.
तत्र आरूढवान् इति तत्र आरूढवान् तत्र धातुः कः कोऽपि स्मरति वा?
रुह्
रुह् धातुः. अस्तु,
रुह्यात् वा आरुह्यात्
रोहेत्
रोधेत् वा
रोहेत् इति दत्तं महोदय. रोहेत् गीतां रोहेयुः.
हा अस्तु, समीचीनं. रोहेत् हा समीचीनं, धन्यवादः भगिनी. अस्तु, हा यदि सः
पर्वतं यदि सः पर्वतं
रोहेत्
रोहेत् तर्हि
न आरोहेत्
न आरोहेत्
नारोहेत्
न रोहेत्. समीचीनं, न रोहेत्
तर्हि कीर्तिं
न कीर्तिं न
तर्हि कीर्तिं प्राप्
न न
न न प्राप्नुयात्
हा तर्हि सः कीर्तिं न प्राप्नुयात् इति समीचीनम् अस्तु तत्र
परन्तु महोदय आरोहेत् अथवा रोहेत्
आरोहेत्
आरोहेत्
आ इति उपसर्गः अस्ति इति मन्ये महोदय
सो आरोहेत्
हा आरोहित् हा हा सत्यं सत्यं रोहित् न आरोहित् हा सत्यं सत्यं हा आरोहित् यतोहि तत्र तव तु मध्ये उपसर्ग तिष्ठति एव खलु आगतवान् गतवान् इति अतः तत्र आरूढवान् हा अस्तु तत्र शुभदा भगिनी अग्रे करोति वा ते सम्यक् क्रीडितवन्तः श्रूयते भगिनि
यदि ते सम्यक् न
अस्तु तत्र मधुमहोदय कर्तुम् इच्छति वा अन्तिमवाक्यद्वयम्
अधुना श्रूयते वा महोदय
अधुना श्रूयते भगिनि अस्तु अस्तु
क्षम्यतां ते सम्यक् क्रीडितवन्तः जयं प्राप्तवन्तः ते सम्यक् क्रीडेयुः ते सम्यक् क्रीडेयुः
न क्रीडेयुः न क्रीडेयुः
यदि
ते सम्यक्
यदि ते सम्यक् न क्रीडेयुः तर्हि जयं न प्राप्नुयुः
हा प्राप्नुयुः समीचीनं हा अन्तिमं
अहं स्यूतं नीतवान् अहं कष्टं न अनुभूतवान् यदि अहं स्यूतं न नयेयं तर्हि कष्टं न
किन्तु किन्तु नकारः अस्ति चेत् गच्छति खलु विधिलिङ्गकारे यदि अहं स्यूतं न नयेयं तर्हि अहं कष्टं न भवेत् इति तत्र भवेत् इति उत्तमपुरुषे किम् अस्ति अनुभवेयं तत्र अहं कष्टम् अनुभवेयं यदि अहं स्यूतं न नयेयं यदि अहं स्यूतं न नयेयं तर्हि अहं
कष्टम्
अनुभवेयम् हा इति अस्तु तर्हि समीचीनमस्ति इदानीं तत्र केवलम् अन्तिमभागः अस्ति करपत्रस्य तत् अग्रिमे वर्गे पूरयामः तर्हि तत्र लकारस्य अर्थः कः इति तत्र एतेन करपत्रेण सुलभरीत्या अवगन्तुं शक्नुमः इति मन्ये अस्तु तत्र अन्ते तत्र नरेश महोदय
तत्र जनार्दन
यत् पुस्तकं भगिनि सम्भाषणसोपानम् इति पुस्तकात् एतत् स्वीकृतं भगिनि
अस्तु
सम्भाषणसोपानम् इति तत्र जनार्दन हेग्डे महोदयस्य सर्वाणि पुस्तकानि समीचीनानि सन्ति तत्र लृङ् लकारस्य विषये एकः अध्यायः अस्तु नरेश महोदय तत्र शान्तिमन्त्रं वदति वा तदनन्तरं हा अपि एकनिमिष तत्र अग्रिमे वर्ग सप्ताहे प्रायशः तत्र समयस्य परिवर्तनं भवति खलु अतः तत्र किं तत्र भारतदेशे यद् षड्वादने अस्ति तदेव भवति अत्र तत्र सार्धसप्तवादने अष्टवादने भवति अस्तु इति
महोदय अग्रिमे सप्ताहे वा तदनन्तरम्
अग्रिमे
सेकेण्ड्
इति वा
थर्टीन्थ्
इति दत्तम् अहमपि चिन्तितवान् अत एव मम संशयः आसीत् पृष्टवान्
US time, EST, what time EST?
8:30 भगिनी
8:30, 5:30
इति भवति. अतः तत्र इदानीमेव तस्मिन् विषये चिन्तितवन्तः. अस्तु, समीचीनम्. अतः तत्र अग्रिमसप्ताहे सार्ध अष्टवादने भवति. अस्तु, तर्हि नरेश् महोदय तत्र शान्तिमन्त्रं वदति वा महोदय.
आं महोदय. ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः महोदय.
धन्यवादः
महोदय. धन्यवादः महोदय. धन्यवादः.